सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. भुक्त्वा तृणानि शुष्काणि पीत्वा तोयं जलाशयात् दुग्धं ददति लोकेभ्यः गावो विश्वस्य मातरः. इत्युक्ते शुष्काणि तृणानि भुक्त्वा जलाशयात् तोयं पीत्वा गावः लोकेभ्यः दुग्धं ददति. गावः विश्वस्य मातरः इत्युक्ते केवलं शुष्कतृणानि खादित्वा जलाशयतः किञ्चित् जलं पीत्वा लोके जनानां कृते धेनवः क्षीरं ददति. धेनुः किं खादति? केवलं किञ्चित् तृणं, शुष्कतृणानि इत्युक्ते ड्रै ग्रास् खादित्वा अस्माकं कृते क्षीरं ददति धेनवः. तथा एव इत्युक्ते तत्र पश्यन्तु, अत्र केवलं शुष्कतृणानि खादित्वा, किन्तु दुग्धं तु पौष्टिकाहारः, दुग्धं तु सम्यक् न्यूट्रियण्ट् रिच् फूड् इति वदामः अत्र. तथा एव अतः एव गावः विश्वस्य मातरः, धेनवः लोके मातरः इव. तथा एव सज्जनाः अपि केवलं लोककल्याणार्थं गावः इव उत्तमानि कार्याणि कृत्वा अपि च कार्याणां फलानि लोकेभ्यः दत्त्वा लोके सञ्चरन्ति. स एव अत्र शिक्षा अस्ति. अद्यतन अस्माकं विषयः अस्ति क्त्वा प्रत्ययः. अतः एतं श्लोकम् उक्तवती. ईदृशानि सुभाषितानि बहूनि सन्ति. वयं सर्वे मिलित्वा अत्र भाषायाः अवगमनार्थं किञ्चित् प्रयत्नं कुर्मः. अपि च गते सप्ताहे वयं स्म इत्यस्मिन् विषये किञ्चित् पठितवन्तः. तदनन्तरं क्त्वा प्रत्ययान्तानां विषये अपि किञ्चित् अधीतवन्तः. तत्र गृहपाठरूपेण त्रीणि करपत्राणि मया प्रेषितानि. तत्र तानि करपत्राणि दृष्ट्वा अधुना वयं किञ्चित् अभ्यासं कुर्मः. सर्वेषां पार्श्वे तानि करपत्राणि स्युः. अत्र ह्यः एव चत्वारि करपत्राणि प्रेषितवती. प्रथमं करपत्रं सर्वेषां पुरतः स्थापयन्तु. अधुना किञ्चित् अभ्यासं कुर्मः शीघ्रम्. अत्र एकवारम् अत्र गीताञ्जलिभगिनी भवत्याः पार्श्वे अस्ति वा?
आम् भगिनि, पठामि. उदाहरणानुगणं त्वान्त पदैः वाक्यानि योजयन्तु. सीता मोदकं खादति, सा जलं पिबति. सीता मोदकं खादित्वा जलं पिबति. जननी स्नाति पाकं करोति. जननी स्नात्वा पाकं करोति.
अत्र भगिनि, अत्र स्नाति इति पदम् अस्ति. अत्र अहं चिन्तयामि धातुः अस्ति स्नाधातुः. स्नाधातोः लट् रूपं स्नाति. वयं जानीमः साधारणतया स्नानं लुडन्तरूपं, स्नानम् इति पदं लुडन्तरूपम् अस्ति. अपि च क्त्वा प्रत्ययान्तरूपम् अपि कर्मपदं स्वीकरोति. अतः पूर्वस्मिन् वाक्ये कर्मपदं किम्?
पूर्वस्मिन् सीतामोदकम् इति वाक्ये मोदकं
अत्र अस्मिन् वाक्ये
अस्मिन् वाक्ये नास्ति महोदय भगिनि.
इत्युक्ते अत्र कृदन्तपदम् इत्युक्ते क्वाप्रत्ययान्तरूपं कृदन्तरूपम् इति वदामः. कृदन्तरूपम् इति कृत्वा तत्र कर्मपदं सम्भवति, किन्तु अत्र स्नात्वा इति वदामश्चेत् तत्र कर्मपदं नास्ति, किन्तु पाकं करोति तत्र अस्ति. पाकम् इति एकं कर्मपदम् इत्युक्ते पूर्वस्मिन् वाक्ये मोदकं खादित्वा, तत्र खादित्वा इति कृदन्तपदं, कृदन्तपदमपि कर्मपदं स्वीकरोति इति कृत्वा तत्र मोदकम् इति एकं कर्मपदं. जलं पिबति, तत्र पिबति तस्य कृते जलम् अन्यत् कर्मपदम्.
किमर्थं भगिनी स्नाधातो सकर्मकधातु
द्रष्टव्यं भगिनि? सकर्मकः वा
अकर्मक एव?
कर्मपदं न स्वीकरोति
इति भाति, तदर्थमेव अत्र कर्मपदं न दत्तमस्ति.
भगिनि अकर्मक जनकः
अहं न अवगच्छामि. पाकं कथं कर्मपदं नास्ति तत्र?
अत्र किञ्चित् म्यूट् करोमि. अत्र पाकम् इति पदं कर्मपदं करोति, क्रूधातुः सकर्मकः इति कृत्वा पाकं, पाकः इति पदमस्ति तत्र पच्धातोः
वाक्यानि सन्ति. अवगच्छामि.
इत्युक्ते अत्र अस्माकं कार्यं किञ्चित् वदामि स्वाप्रत्ययान्तरूपाणां विषये. किञ्चित् अत्र वाक्यद्वयमस्ति, वाक्यद्वयानां द्वयोः मेलनं कृत्वा अत्र एकमेव वाक्यं रचयितुम् इच्छामः अत्र. अपि च द्वयोः वाक्ययोः कर्ता एकः एव. अत्र क्त्वा योजयित्वा वाक्यं रचयितुम् इच्छामश्चेत् तत्र कर्ता एकः एव स्यात्. द्वयोः वाक्ययोः कर्ता एकः एव. अत्र सीता एव कर्ता तस्मिन् वाक्ये. सीता मोदकं खादति अपि च जलं पिबति. तत्र एकः एव कर्ता. बहूनि कार्याणि करोति चेत् तदा पूर्वं कृतं यत् कार्यमस्ति अथवा पूर्वं तेन या क्रिया कृता तस्य कृते क्त्वान्तप्रत्ययं योजयामः. पूर्वं कार्यम् अथवा पूर्वक्रिया या क्रिया अस्ति तस्य कृते क्त्वान्तप्रत्ययं योजयित्वा वदामः. स एकः विषयः इत्युक्ते कर्ता एकः एव यात्. अपि च वाक्यद्वयोः मेलनं कृत्वा एकमेव वाक्यं रचयामः अत्र. वदतु भगिनि, गीताञ्जलि भगिनि.
जनकः कार्यालयं गच्छति, कार्यं करोति. जनकः कार्यालयं गत्वा कार्यं करोति. अत्र गच्छति गत्वा अपि करोति कृत्वा सकर्मकधातोः अस्ति. सः कार्यालयं कार्यं द्वे कर्मपदं सः.
उत्तमम् उत्तमं. कार्यालयः इति प्रथमान्तरूपं, किन्तु अत्र कार्यालयम् इति अस्ति. किमर्थं चेत् गम् धातुः सकर्मकधातुः, अपि च कार्यम् इति पदं नपुंसकलिङ्गपदं, किन्तु द्वितीयविभक्तौ अस्ति अत्र. इत्युक्ते कर्मपदम् अस्ति, कर्मपदम् एव क्रूधातुः सकर्मकः. अतः उत्तमम्.
छात्रः पाठं पठति, निद्राति. छात्रं पाठं पठित्वा निद्राति. पठ् धातु अपि च सकर्मकधातु, पाठं कर्मपदं, निद्राति धातुः निद्र
तत्र
दृधातु, दृधातु अकर्मकधातु
अकर्मकधातु. अत्र पाठं पठति अपि च निद्राति, पठित्वा निद्राति. अत्र पश्यतु भगिनी, पूर्वमस्ति खादित्वा इति दत्तमस्ति, इत्युक्ते तत्र इडागमः अभवत्. द्वितीये वाक्ये स्नाति, तत्र किम् अभवत्? स्नात्वा. तत्र अस्ति वा?
नास्ति.
नास्ति. अपि च गच्छति, तत्र रूपं किम्?
गत्वा. इडागमः नागच्छति.
नागच्छति, केवलं वर्णमेलनं. तत्र केवलं वर्णमेलनं भूत्वा गत्वा इति भवति. तत्र एकवारं तने महोदय वदतु, किमर्थम् इडागमः भवति, किमर्थं न भवति?
अस्तु भगिनि, इडागमस्य विषये धातुः अपि सेट् स्यात्, अपि च प्रत्यये इडानुकूलस्य प्रत्यये इडानुकूलता अपि स्यात्. अत्र धातो प्रत्ययस्य विषये सूत्रद्वयम् अस्ति इडानुकूलस्य विषये. प्रथमं सूत्रम् अस्ति आर्धधातुकस्येड् वलादीः इति वदति, धातोः परे आर्धधातुकप्रत्ययः स्यात्, अपि च सः प्रत्ययः वलादिः अपि स्यात्. द्वितीयसूत्रम् निषेधसूत्रम् अस्ति नेड् वशीकृति. अत्र धातोः कृते अपि सूत्रम् अस्ति, एकाच उपदेशेन दात्तात्, सः अपि निषेधसूत्रम् अस्ति. यदि वयं त्वा प्रत्यय इति स्वीकुर्मः तर्हि अनुबन्धलोपानन्तरं तत्र प्रत्ययस्य आदौ तकारः इति अस्ति, तकारः वलादि अस्ति अपि च वशाद् नास्ति इति कृत्वा अत्र इडानुकूलता वर्तते.
उत्तमम्, उत्तमं तावदेव. इत्युक्ते अत्र केवलं धातवः, तत्र धातुः कीदृशः इति द्रष्टव्यः, अपि च तस्य अनन्तरं प्रत्ययः कीदृशः, तत्र द्वयोः कृते चिन्तनीयं भवति. अत्र धातुः सेट् अस्ति वा? सेट् इत्युक्ते सा, इट्, यस्य, सः, तत्र बहुव्रीहिसमासः पदमस्ति. सेट्, सेट् इत्युक्ते सा, इट्, यस्य, सः. अनिट् इत्युक्ते सः धातुः सेट् धातुः नास्ति. अपि च वेट् इति अस्ति, वेट् इत्युक्ते तत्र विकल्पेन इडागमः भवति, नो चेत् तत्र विकल्पेन भवति. तथा केचन धातवः सेटः सन्ति, केचन धातवः अनिटः सन्ति, केचन वेटः सन्ति. अपि च धातोः विषये तत् द्रष्टव्यम्, अपि च प्रत्ययस्य विषये, अत्र प्रत्ययः क्त्वा प्रत्ययः. तत्र वयं जानीमः प्रत्ययाः इत्युक्ते क्ता प्रत्ययः, क्तावत् प्रत्ययः, तुमन् प्रत्ययः, एतानि सर्वाणि प्रत्ययः. इत्युक्ते अत्र धातोः अनन्तरं वयं प्रत्ययं योजयामः. तत्र प्रत्ययः कीदृशः इति द्रष्टव्यम्. अत्र क्त्वा प्रत्ययः अस्ति. क्त्वा प्रत्ययः इति वदामश्चेत् अष्टाध्याय्यां पठामश्चेत् क्त्वा, तत्र ककारः आदौ ककारः श्रूयते, किन्तु लोके केवलं वयं त्वा इति वदामः. तत्र ककारः कित् अस्ति. कित् इत्युक्ते इत् संज्ञकवर्णः, ककारः इत् संज्ञकवर्णः, तदर्थमेव कित् इति वदामः. तदर्थमत्र कित्वत् भूत्वा गुणनिषेधः भवति, किन्तु इडागमः भवति. इत्युक्ते अत्र धातुः कीदृशः, तदनन्तरं यत् यः प्रत्ययः अस्ति सः प्रत्ययः कीदृशः इति अपि द्रष्टव्यमस्ति. अत्र गम् धातुः, गम् धातुः केवलं गत्वा वर्णमेलनमेव भवति. तत्र अपि गम् धातुः अनुनासिकान्तधातुः इति वदामः. किमर्थं चेत् तत्र गम् धातोः अन्ते मकारः अस्ति, मकारः वा नकारः वा तथा अस्ति चेत् अनुनासिकान्तधातुः इति वदामः. यथा गम् नम् रम् यम् एते धातवः अनुनासिकान्तधातवः तथा सन्ति चेत् तत्र केवलं वर्णमेलनं भूत्वा तत्र गत्वा नमति इति पदं वयं जानीमः, नत्वा अग्रे आगच्छति, अपि च यत्वा तादृशरीत्या अनुनासिकान्तधातुः अस्ति चेत् रूपाणि सम्भवन्ति. केवलं वर्णमेलनं भूत्वा तत्र ईडागमः न भवति. तदर्थं बहूनि सूत्राणि सन्ति. तदर्थं बहूनि सूत्राणि सन्ति.
भगिनी, मकार अनुनासिक अस्ति चेत् सर्वदा इडियोग्य न भवति वा? इडियोग्य न
अनुनासिकान्तधातुः अस्ति चेत् इडागमः न भवति. उदाहरणत्वेन गम् धातुः, रम् धातुः, नम् धातुः, यम् धातुः, तत्र तादृशरीत्या केचन धातवः सन्ति. परन्तु बहूनि सूत्राणि सन्ति कुत्र इडागमः भवति, कुत्र इडागमः न भवति. इडागमः विचारः एव बहु दीर्घविषयः. तत्र बहूनि सूत्राणि कार्याणि कुर्वन्ति. उत्तमम्. अधुना गीताञ्जलि भगिनी अग्रिमं वाक्यं पठतु.
शिशुः फलं खादति क्रीडति. शिशुः फलं खादित्वा क्रीडति. अत्रापि सकर्मकधातु अपि च इडागम आगच्छति. खादति नो इडागम नागच्छति भगिनि.
चिन्तयतु भगिनि, अत्र धातुः
खादित्वा. आं भगिनि, दित्वा इकार आगच्छति, इडागम आगच्छति.
अनन्तरं क्रीडति इति पदमस्ति, तत्र किं भवति?
क्रीडति अहं न जानामि किमर्थं, किन्तु अकर्मकधातु अस्ति.
अकर्मकधातुः, किन्तु अहं वदामि यदि क्रीडति इति पदस्य कृत्वान्तरूपं किं भवति?
क्रीडित्वा. अपि च इडागमः आगच्छति.
इडागमः आगच्छति इत्युक्ते क्रीड् धातुः अपि च खाद् धातुः, तत्र इडागमः भवति. इत्युक्ते तत्र इडागमानुकूलता धातौ अस्ति, अपि च प्रत्ययः इडागमानुकूलप्रत्ययः एव, अतः क्रीडित्वा. परन्तु पूर्वस्मिन् वाक्ये करोति अस्ति, तत्र रूपं किं भवति?
कृत्वान्तरूपं.
सुन्दरं.
कृत्वा.
सुन्दरं सुन्दरं. धन्यवादः भगिनि. अग्रे अत्र उषा भगिनी भवती पठतु.
आम् भगिनि. त्वं पत्रं लिखसि प्रेषयसि. त्वं पत्रं लिखित्वा प्रेषयसि.
अत्र पश्यतु, पूर्वतनेषु वाक्येषु तत्र कर्तृपदं प्रथमपुरुषकर्तृपदं दत्तमस्ति. सीता, जननी, जनकः, छात्रः, शिशुः, तादृशरीत्या तत्र कर्तृपदानि. अत्र कर्तृपदं मध्यमपुरुषे अस्ति. इत्युक्ते तत्र किं वक्तव्यम् इत्युक्ते कथाप्रत्ययान्तरूपाणि
त्रिषु लिङ्गेषु,
त्रिषु पुरुषेषु वचनेषु तत्र रूपं समानम् इत्युक्ते एकैक प्रत्येकं धातोः एकमेव रूपं सिद्ध्यति. लिख् धातोः एकमेव रूपं सिद्ध्यति. तत्र लिखित्वा इत्युक्ते क्त्वा प्रत्ययान्तरूपम् अव्ययम्. अव्ययम् इति कृत्वा तस्य लिङ्गम् अनुसृत्य वा, वचनम् अनुसृत्य वा, विभक्तिम् अनुसृत्य वा, रूपभेदः न कदापि भवति. तुमन् प्रत्ययः अपि अव्ययपदम्. क्त्वा प्रत्ययः अपि अव्ययपदम्. उत्तमम्. अत्र प्रेषयसि इति दत्तमस्ति, तत्र रूपं वदतु.
मध्यमपुरुष एकवचनम् अस्ति.
उत्तमं.
यतः प्रेषयन्ति, प्रेषयसि.
प्रेषयति प्रेषयति इति पदस्य क्त्वान्तरूपं किं
प्रेषयित्वा
सुन्दरम् अनन्तरं
भवती
प्रेषयति धातु प्र उपसर्ग अस्ति धातु किं भगिनि
द्रष्टव्यं भगिनि तत्र कुपि दृष्ट्वा वदति चेत् सम्यक् अत्र पूर्णतया द्रष्टव्यम् अनन्तरं
भवती देवं नमति प्रदक्षिणं करोति भवती देवं नत्वा प्रदक्षिणं करोति देवं कर्मपदम् अस्ति करोति कर्मपदम् ऐ मीन् सारि क्रियापदं कृधातुः अस्ति
अत्र देवम् इति कर्मपदं कस्य कृते
कस्य कृते
इत्युक्ते तत्र पश्यतु भगिनि अत्र क्रियापदद्वयमस्ति नमति अस्ति करोति अस्ति नमति इति क्रियापदस्य कृते देवम् इति पदं कर्मपदं
किं दक्षिणं करोति क्रियापदस्य कर्मपदं
करोति इत्यस्य कर्मपदं प्रदक्षिणं उत्तमम् इत्युक्ते अत्र देवः इति देवम् इति भवति नमति यथा वयं पूर्वमेव दृष्टवन्तः गच्छति इति क्रियापदस्य रूपं गत्वा अत्र नमति इत्यस्य रूपं नत्वा इत्युक्ते अत्र किञ्चित् भिन्नरूपम् अस्ति अत्र इडागमः न भवति किन्तु किञ्चित् भिन्नं रूपम् अग्रिमं पठतु
सा गीतं शृणोति नृत्यति सा गीतं श्रुत्वा नृत्यति गीतं कर्मपदम् अस्ति शृणोति गीतं श्रुत्वा नृत्यति
उत्तमम् अत्र धातुः श्रुधातुः इत्युक्ते अत्र केवलं वर्णमेलनमेव भवति श्रुत्वा नृत् धातुः तथा भवति अनन्तरं पठतु
अध्यापकः पाठं पाठयति प्रश्नं पृच्छति अध्यापकः पाठं पाठयित्वा प्रश्नं पृच्छति कर्तृपदम् एकमेव अस्ति अध्यापकः पाठं पाठयति प्रश्नं पृच्छति पाठं कर्मपदमस्ति प्रश्नमपि कर्मपदमस्ति पृच्छति धातु किम् अस्ति भगिनि
प्रच् धातुः क्त्वान्तरूपं किं भवति
पृष्ट्वा
सुन्दरं पृष्ट्वा
पाठयित्वा णिच् प्रत्यय अस्ति न भगिनि
आं णिच् रूपं पठित्वा तत्र पठित्वा पठति इत्यस्य पठित्वा पाठयति इत्यस्य पाठयित्वा
भगिनि अत्र पाठयित्वा कथं भवति पाठि योग त्वा प्रत्ययः अस्ति तत्र गुणः न भवति न कथं भवति पाठयति इति वृद्धिः किमपि भवति वा तत्र
वृद्धिः भवति महोदय अचोयिणीति तने महोदय वदतु
अस्तु 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 अवगतवान्
अचोण्यति अत्र कार्यं न करोति किल परे कार्यं करोति
अत्र अत्र पश्यन्तु अत्र णिच् णिजन्तरूपं पठ् धातोः णिजन्तधा पठ् धातोः णिजन्तरूपं पाठयति तत्र नूतनधातुः पाठी आतिदेशिकधातुः आगच्छति पाठी तत्र पठ् पाठी कथं भवति तत्र अचोयिणिति इति सूत्रं कार्यं कृत्वा अचुयन्ति न महोदय, अत्र अचुयन्ति न, अत उपधाया, क्षम्यताम्, अत उपधाया, अत उपधायाः, क्षम्यताम्, अत्र वृद्धिः एव भवति किन्तु अत उपधायाः इति सूत्रेण वृद्धिः भवति. किमर्थं चेत् तत्र पठ् इति धातुः अस्ति, पठ् धातौ उपधायां ह्रस्व अकारः अस्ति, ह्रस्व अकारस्य दीर्घत्वं भवति, इत्युक्ते पठ् पाठी भवति अत उपधायाः, अचोयुणिति भिन्नः. तत्र नूतन अङ्गं पाठय इति भवति, पुनः वयं त्वाप्रत्ययं योजयामः. तत्र अनेकाचि धातुः पाठि इति अनेकाचि धातुः अस्ति इति कृत्वा तत्र सर्वे अनेकाचः इडागमानुकूलः. तत्र महोदयः उक्तवान् एकाच उपदेशे अनुदात्तात् इति सूत्रं किं वदति, धातुः एकाच अस्ति चेत् इडागमः न भवति, किन्तु निजन्त निजन्तधातवः सर्वे अनेकाचः. अतः
अत्र ई भवति न, ए पाठी, तथा अय भवि वृद्धि भूत्वा एव अय भवितुम् अर्हति किमपि, अथवा गुण भूत्वा एव अय पाठी पाठय
महोदय.
यकार कथं भवति, यकार
अत्र अत्र पश्यतु, पठ् प्रथमतया पठ् पाठी भवति, तत्र निजन्तधातुः भवति, तदनन्तरं पाठयति इति रूपं कथम् आगच्छति इत्युक्ते तत्र पुनः तत्र शप् शप् विकरणप्रत्ययं
योजयामः.
महोदयस्य प्रश्नः अस्ति पाठी योगः त्वा अत्र यकारः कथ कथम् आगच्छति, गुण भवति, यदि गुणकार्यं भवति तर्हि एचोय वायावः इति कार्यं करोति, परन्तु त्वा प्रत्ययः कित् अस्ति तर्हि गुणनिषेधकः अस्ति इति मन्ये.
अतः एव पट् पाठी अत्र शप् भवति वा, शप् भवति वा
महोदय, एकवारं शृणोतु, अत्र अहं वदामि, अत्र शप् अनन्तरं निजन्तधातुषु शप् आगच्छति एव, शप् इत्यनेन तत्र गुणकार्यं भवति, गुणकार्यं भूत्वा अत्र पाठी पाठे भवति, अनन्तरं तत्र शप् इत्यस्मात् पुनः तत्र अकारः दृश्यते, पाठे योगः आ इति वदामश्चेत् तत्र एचोयवायावः इत्यनेन तत्र अयादेशः भवति, एकारस्य स्थाने अया प्रथमतया गुणः भूत्वा एकारस्य स्थाने अयादेशः भवति, तदा पाठय इति अङ्गमागच्छति अयादेशः भूत्वा. तत्र प्रक्रिया अस्ति,
अत्र अहं केवलं निच् प्रत्यये शप् आगच्छति सर्वदत्वके परे, बट् परन्तु एतत्
भगिनि
एतत् अर्धत्वक अस्ति न, आगच्छति वा त्वा त्वापि.
श्रुणोतु महोदय, अत्र एकं वदामि, पठ् धातुः तः आर्धधातुकप्रत्ययः निच् प्रत्ययं योजयामः, निच् प्रत्ययम्
आर्धधातुकप्रत्ययः,
आर्धधातुकप्रत्ययं योजयामश्चेत् तदा वृद्धिः भूत्वा अत उपधायाः इत्यनेन वृद्धिः भूत्वा पठ् पाठी भवति, अधुना नूतनधातुः निष्पन्नं भवति, नूतनधातुतः पुनः कथं शप् योजयामः, कथं तिप् योजयामः, तिप् अपि च शप् योजनेन तत्र पाठयति इति निजन्तरूपम् आगच्छति. अधुना त्यजामः, अग्रे गच्छेम. उत्तमं. अनन्तरम् अत्र कुत्र स्मः वयम्? उषा भगिनी वदतु.
यस्तनव्याकरणवर्गे पठिष्यामः चुरादिगणे अस्ति निच् प्रत्यय न भगिनि?
आम् इत्युक्ते चुरादिगणे धातवः चुरादिगणीय धातुषु तत्र स्वार्थे प्रेरणार्थे तत्र रूपं समानं तथा वक्तव्यम्, इत्युक्ते चुरादिगणे ये ये धातवः सन्ति तेषां रूपद्वयं न सम्भवति, केवलम् एकमेव रूपम् अस्ति, स्वार्थे अपि च प्रेरणार्थे अपि एकमेव रूपं चुरादिगणे. चुरादिगणस्य लक्षणं तादृशमस्ति. किन्तु अन्येषु गणेषु पठति इति एकं रूपं साधारणरूपं, पाठयति इति निजन्तरूपं, तथा रूपद्वयं सम्भवति अन्येषु गणेषु. किन्तु चुरादिगणे एकमेव रूपं, स्वार्थे प्रेरणार्थरूपं, स्वार्थे निच्प्रत्ययः. निच्प्रत्ययं योजयामश्चेत् तत्र शप आगच्छति एव, विकरणप्रत्ययं आगच्छति. अधुना तनय महोदय भवान् वदतु, भवान् किं वक्तुमिच्छति अधुना?
अहं किमपि न, अहं केवलं प्रश्नः, मम प्रश्नः अस्ति, भवती उक्तवती पाठि इति धातुः अनेकाच् अस्ति, अतः तत्र इडागमस्य तत् अतः सः धातुः सेट् अस्ति, परन्तु अहं चिन्तयामि तत्र एकाच् उपदेशे अनुदात्तात् इति सूत्रं कार्यं न करोति, यतोहि पाठि इति उपदेश अवस्थायां नास्ति इति मन्ये.
इत्युक्ते अत्र उपदेशावस्थायां नास्ति किमपि. अहं चिन्तयामि तत्र निजन्तधातवः, निजन्तधातुषु अहम् एकवारं श्रुतवती, तदर्थं वदामि. निजन्तधातुषु ईडागमः भवति किमर्थं चेत् तत्र अनेकाचः सन्ति इति कृत्वा. अहं निजन्तपाठं पठितवती, तदर्थं वदामि.
शप् आगच्छति चेत् सम्यक् भवति, सर्वदा भवति शप् निश्चिने. अस्तु,
निजन्तधातुषु तत्र प्रक्रिया अस्ति, पुनः एकवारं शप् आगच्छति, सन्धिकार्यं भवति.
मम भ्रमः आसीत् सार्वधातुक तस्य एव एतत् विकरणप्रत्यय आगच्छति इति.
तत्र सार्व महोदय, अत्र निच् प्रत्ययं प्रथमतया निच् प्रत्ययं योजयामः. निच् आर्धधातुकः एव, तत्र आर्धधातुकप्रत्ययः परः चेत् तत्र प्रथमतया वृद्धिकार्यं भवति. किमर्थं चेत् अदुपदधातुः अस्ति इति कृत्वा नूतनधातुः आगच्छति, नूतनधातुः यदा नूतनधातुः आगच्छति तदा अनन्तरं तस्मात् तिङ् प्रत्ययं योजयित्वा वयं शप् विकरणप्रत्ययं मध्ये आगच्छति, तथा प्रक्रिया अन्ततो गत्वा पाठयति. अस्तु महोदय. अनन्तरम् अत्र
छात्रः वाक्यं वदति, अर्थं जानाति. छात्रः वाक्यं उक्त्वा अर्थं जानाति.
तत्र जानाति, तस्य रूपं किं भगिनि?
त्वान्तरूपं भगिनि, ज्ञात्वा.
ज्ञात्वा, उत्तमं. ज्ञाधातोः तत्र केवलं ज्ञात्वा इति भवति,
तदपि अनुनासिकास्ति, अतः किमपि
अनुनासिकः नास्ति महोदय.
दातु
तत्र भिन्नसूत्रमस्ति ज्ञाधातोः, केवलम् अत्र वर्णमेलनमेव भवति. तने महोदय, भवान् जानति वा अत्र किमर्थम् ईडागमः नास्ति?
अत्र अहं न जानामि, परन्तु आकारधातुः अस्ति. अहं चिन्तयामि तत्र अनुदात्तस्वरः नास्ति इति कृत्वा ईडागमः न भवति.
अनुदात्तस्वरः नास्ति इत्युक्ते अनुदात्तनित आत्मनेपदम् इत्युक्ते अत्र आत्मनेपदि नास्ति, अस्तु किमपि ज्ञात्वा इति रूपं वदतु भगिनि.
सारी भगिनि, भगिनि अत्र उदित्वा दत्तं, वदति अपि च उक्त्वा समाने वा?
अत्र अर्धदृष्ट्या समानम्. अत्र वदति, साधारणतया वयं वदति इति पदं साधारणतया शृणुमः, तथा एव उक्त्वा इति पदं साधारणपदं, किन्तु उदित्वा इति पदं किञ्चित् असाधारणं, तथा एव वक्ति वच् धातु. अत्र एकं वदामि, वद् धातोः लट् रूपं वदति, वच् धातोः लट् रूपं वक्ति, वद् धातोः कृतान्तरूपम् उदित्वा. अनन्तरम् अत्र किञ्चित् ध्वनिः अस्ति, अत्र किं वदामि, वच् धातोः रूपम् उक्त्वा, किन्तु उक्त्वा साधारणरूपम्, उदित्वा किञ्चित् असाधारणरूपं, साधारणतया न शृणुमः, किन्तु रूपम् उदित्वा एव.
मूलरूपं किम् अस्ति भगिनि उदित्वा?
अत्र वद् धातोः रूपम् उदित्वा.
भगिनि द्वयोः धातोः वद् अपि च वच् वदति निष्पन्नं करोति?
न न भगिनि, अत्र वद् धातोः लट्लकाररूपं वदति, वच् धातोः लट्लकाररूपं वक्ति. वक्ति वच् धातोः रूपं अहं चिन्तयामि अदादिगणीय धातुः अत्ति इव कोऽपि दृष्ट्वा वदति वा वच् धातुः अदादिगणीयः इति अहं चिन्तयामि. अत्र वक्ति अदादिगणीय धातुः. तत्र किं भवति इत्युक्ते अत्र सम्प्रसारणम् इति एका प्रक्रिया अस्ति, सम्प्रसारणं भूत्वा वच् धातुः उक्त्वा भवति, वद् धातुः उदित्वा, तथा एव अन्ये धातवः सन्ति, वस् धातुः उषित्वा, तत्र तादृशरीत्या रूपाणि भवन्ति, वप् धातुः उक्त्वा, तादृशरीत्या अत्र वद् धातोः रूपम् उदित्वा, तत्र कार्यमस्ति सम्प्रसारणम्. कथं भवति वद् उदित्वा कथं भवति? तत्र वकारस्य स्थाने उकारः कृमायाति, भवन्तः सर्वे श्रुतवन्तः एव यण् सन्धिः, यण्सन्धिं पठामश्चेत् तत्र किं भवति, स्थाने यणादेशः भवति इति वयं पठितवन्तः, किन्तु सम्प्रसारणकार्यम् अस्ति चेत् तत्र विकृतिरीत्या भवति, इत्युक्ते यणः स्थाने इकः भवति इव विपरीतक्रमेण कार्यं भवति तत्र सम्प्रसारणकार्यम्. अवगतं वा भगिनि?
किञ्चित् अवगमनं सम्प्रसारणं यण् नियम विपरीतकार्यं करोति इति.
एक्साक्ट् आपोसिट् इत्युक्ते अत्र यण्सन्धि कार्यं कथं भवति, इकः स्थाने यण् भवति, परन्तु सम्प्रसारणकार्यं कथं भवति इत्युक्ते तस्य पूर्णतया विपरीतक्रमेण, एक्साक्ट् आपोसिट्. तत्र तथा वर्णपरिवर्तनं भवति तस्मिन् कार्ये,
रिवर्स्
भवति. उत्तमं, रिवर्स् रैट् वर्ड्. उत्तमं, धन्यवादः उषा भगिनी. अनन्तरं शोभा भगिनी द्वितीयं करपत्रं पुरतः स्थापयि सर्वे. एतत् करपत्रम् अभवत् इत्युक्ते समाप्तमिति भाति. उत्तमम् भगिनी, द्वितीयं करपत्रं पश्यतु.
अहं अधोलिखितवाक्यानि तदेव न भगिनि?
अत्र उदाहरणानुगुणं वाक्यानि योजयन्तु इति अस्ति, अपि च एकवारं पश्यामि. अधोलिखितानि वाक्यानि. उत्तमम्.
अधोलिखितानि वाक्यानि. अधोलिखितानि वाक्यानि तावन्तेन पदेन योजयन्तु. एकनिमिषं
भगिनि. भगिनि त्वान्तेन
त्वान्तेन पदेन योजयन्तु.
इत्युक्ते अत्र वयं पूर्वमेव उक्तवन्तः तत्र लोके त्वान्त इति वदामः, किन्तु तत्र त्वान्त तत्र ककारः ककारः अपि अस्ति. ककार इत्युक्ते यद्यपि इत्संज्ञकवर्णाः सन्ति तेषां प्रयोजनमस्ति तत्र प्रक्रियायां, यदा वयं कथं तत्पदं निष्पन्नं भवति इत्यस्मिन् विषये इत्संज्ञकवर्णः अत्र ककारः इत्संज्ञकवर्णः भूत्वा अपगच्छति, तेषां प्रयोजनम् अस्ति एव, तेषां कार्यम् अस्ति एव, अतः एव क्त्वान्त इति दत्तमस्ति. पठतु भगिनि.
निम्नलिखित वाक् मुद्रणं सम्यक् न वाक्यो
भगिनी, दट् इस् हिन्दी, दट् इस् हिन्दी भगिनि, जस्ट् गो टु द एक्साम्पल्.
ओके, या दट्स् ट्रू. धन्यवादः भगिनि. पूर्वं पश्चात् उदाहरणं, छात्रः पाठं पठति, टिप्पणीं लिखति. छात्रः पाठं पठित्वा टिप्पणीं लिखति.
टिप्पणी इत्युक्ते भगिनि, टिप्पणी इत्युक्ते किं?
टिप्पणी इत्युक्ते समरी, समरी अस्ति भगिनि.
टिप्पणी कन्नडस्थेम अस्ति टिप्पणी.
अहं चिन्तितवती टिप्पणी समरी अपि नास्ति वा? पठित्वा टिप्पणीं लिखतु इत्युक्ते नोट्स् रीक्याप्?
नोट्स्
टिप्पणी इत्युक्ते टिप्पणी इत्युक्ते नोट्स् इति अहं चिन्तयामि, किन्तु किमपि
नोट् ओन्लि कन्नड सेम् तदेव अस्ति टिप्पणी नोट् एव.
आम् आं महोदय. कृषकः भूमिं खनति, सस्यं रोपयति. कृषकः भूमिं खनित्वा अस्ति वा भगिनि?
खनित्वा
सस्यं रोपयति.
उत्तमं. अत्र खनति खननं इत्युक्ते किं?
खननम् इत्युक्ते प्लोयिङ्ग् द फील्ड्.
कर्षणं
खनति,
डिगिङ्ग्.
डिगिङ्ग् उत्तमं. एक्स्केवेशन् खननम् इत्युक्ते एक्स्केवेशन्, एक्स्केवेट् अन्ते तादृशरीत्या खननं खननं तत् ल्युडन्तरूपं खननं. अत्र खनति किन्तु यथा भवती उक्तवती खनित्वा, अत्रापि धातुः खन् अस्ति इति भाति, अतः खनित्वा इडागमः भूत्वा खनित्वा यथा पठित्वा. अनन्तरम् अत्र रोपयति इति पदमस्ति. रोपयति इत्युक्ते?
रोपयति इत्युक्ते सस्यं वर्धितुं, सस्
आरोपयति, आरोपयति इति एम् रोपयति, आरोपयति
ग्रोयिङ्ग्.
अत्र रोपयति इत्युक्ते अर्थः सोयिङ्ग्, सोयिङ्ग् इति वदामः आङ्ग्लभाषायां सोयिङ्ग् सीड्स्.
ओ, वर्धितुं नास्ति वा भगिनि?
नास्ति भगिनि, अत्र रोपयति इत्युक्ते इत्युक्ते अत्र
सोयिङ्ग् सस्यं रोपयति. एक्चुलि इट् इस् प्लाण्टिङ्ग्, आरोपणं, बीजस्य वपनम् भवति.
उत्तमं, उत्तमं. बीजस्य वपनं, सस्यस्य रोपणं,
रोपणम्
इत्युक्ते अहं चिन्तयामि रोपणं, रोपणम् इति भवति इति अहं चिन्तयामि. रकारः अस्ति इति कृत्वा, रेफः अस्ति इति कृत्वा रोपणम् इत्युक्ते अत्र प्लाण्टिङ्ग् इति वदामः धातुः.
धातु
द्रष्टव्यं, द्रष्टव्यं भगिनि किमर्थं चेत् तत्र रूपस्ति चेत् अत्र गुणकार्यं भूत्वा तत्र रोपयति इति भवति वा इति द्रष्टव्यम् अष्टाध्यायीं दृष्ट्वा एव अवगन्तव्यम्. अत्र सस्यं रोपयति, यथा महोदयः उक्तवान् साधारणं पदम् आरोपयति इति अपि अस्ति. तत्र केवलम् आ उपसर्गयोजनेन तत्र अर्थभेदः अस्ति वा इति अपि द्रष्टव्यम् अत्र. किन्तु वयं साधारणतया शृणुमः आरोपणं, निन्दारोपणं, तादृशानि निन्दारोपणम्
उपरि गच्छति. आरोपणं लता आरोप वृक्षस्य उपरि गच्छति, आरोपणं भवति वा
आरोहणम्?
आरोपणम् आरोपणं डिफरेण्ट् आरोपणम्.
अत्र पश्यन्तु तद् अहं वदामि, आरोहणं तत्र आ उपसर्गपूर्वकः रुः धातुः, आरोहणम् इति तत्र भवति. आरोहणम् इत्युक्ते उपरि गमनं, किन्तु अत्र दत्तमस्ति आरोपणम् आरोपणं, किन्तु अत्र आ इति न दत्तमस्ति, केवलं रोपयति इति अस्ति. तथा तादृशचिन्तनं कुर्मः चेत् तत्र धातुः रूप् इति भवति वा इति चिन्तनीयम्. इत्युक्ते अत्र प्लाण्टिङ्ग् इत्यस्मिन् अर्थे सस्यं रोपयति कृषकः, भूमिं खनति इत्युक्ते भूमिं खनति च सस्यं रोपयति. उत्तमम्, अग्रे पठतु भगिनि.
आचार्यः पाठं पाठयति, प्रश्नं पृच्छति. आचार्यः पाठं पाठयित्वा प्रश्नं पृच्छति.
उत्तमम्. अत्र पृच्छति इति पदस्य रूपं किं? क्त्वान्तरूपं
पृष्ट्वा.
सुन्दरं सुन्दरं. पाठयति वयं जानीमः पाठयित्वा निजन्तरूपं, यथा. अनन्तरं
कृष्णः रथं स्थापयति, अर्जुनम् उपदिशति. कृष्णः रथं स्थापयित्वा अर्जुनम् उपदिशति.
उत्तमम्. उपदिशति अत्र अत्र उप उपसर्गपूर्वकः दिश् धातुः. अत्र उपदिष्ट अत्र औपदेशिकधातवः इति वयं जानीमः, तत्र व्याकरणवर्गे वयं पठामः उपदिश. अर्जुनं कृष्णः रथं स्थापयित्वा अर्जुनम् उपदिशति इति दत्तमस्ति, तत्र व्याकरणवर्गे वयं पठामः तत्र औपदेशिकधातवः इति पदमस्ति. औपदेशिकधातवः इत्युक्ते उपदेश इति पदात् आगतं पदमेव औपदेशिक, तत्र तद्धितप्रत्ययान्तरूपम् इत्युक्ते औपदेशिकधातवः इत्युक्ते पाणिनेः अष्टाध्याय्यां ये ये धातवः उपदिष्टाः सन्ति ते सर्वे इत्युक्ते किं वदामः, उपद्विसहस्रं धातवः पाणिनेः अष्टाध्याय्यां ये ये धातवः उपदिष्टाः ते सर्वे औपदेशिकः. अत्र औपदेशिकः इत्युक्ते ये उपदिष्टाः इत्युक्ते
तादृशरीत्या
भाववाचकपदं तद्धितान्तरूपं भाववाचकपदम् उपदिष्ट उपदिशति, तत्र धातुः अपि च उपसर्गः समानः एव, किन्तु तद्धितान्तरूपम् औपदेशिक. उत्तमं
भगिनी. तद्धितप्रत्ययः किं करोति?
तद्धितप्रत्ययः इत्युक्ते अत्र प्रातिपदिकात् प्रत्ययं तद्धितप्रत्ययाः अहं सम्यक् न जानामि भगिनि. अत्र देर् आर् मोर् देन् टु 275 प्रत्ययाः सन्ति, तद्धितप्रत्ययाः मोर् देन् 270 सन्ति. तत्र तद्धितप्रत्ययस्य योजनेन तत्र नूतनं प्रातिपदिकं सिद्ध्यति. तत्र पदस्य विषये अहं जानामि, तद्धित इत्युक्ते तत्र तद् योगः हित, तद्योगः हित इति रूपं सिद्ध्यति. तादृशरीत्या तद्धित इति तत्र सन्धिकार्यं भूत्वा तद्धित इति पदमागतं, किन्तु तत्र तद्धित इत्युक्ते तद्धित इत्युक्ते तत्र दशरथः दाशरथी, दाशरथी इति पदं तद्धितान्तं रूपं, तथा एव अत्र इतोपि वयं सर्वे जानीमः एव अत्र जनकस्य पुत्री जानकी तत्र तादृशरीत्या अत्र देवः इत्यस्य भावः दैवम् एतानि तद्धितान्तरूपाणि तथा एव अत्र उपदिशति तत्र स एव धातुः अस्ति औपदेशिक इति धातूनां विषये उत्तमम् अग्रिमं
भगिनि पौत्र अपि तद्धित एव पुत्रस्य पौत्र अपि तद्धित एव
आम् महोदय
पौत्र
भगिनि अहं कुत्रापि श्रुतवान् आसीत् वैयाकरणाः तद्धितमूढाः सन्ति इति
विद्याभगिनी उक्तवती वैयाकरणाः तद्धितमूढाः इत्युक्ते ते सर्वदा तद्धितप्रत्ययान्तानां विषये एव ते चिन्तयन्ति अपि च कलहं कुर्वन्ति तद्धितमूढाः इत्युक्ते किमर्थम् इत्युक्ते तत्र अप्राक्सिमेट्लि 300 तद्धितप्रत्ययाः सन्ति बहूनि सन्ति तत्र तद्धितप्रक्रिया एव बहु बृहती प्रक्रिया अस्ति तत्र उत्तमम् अग्रिमं पठतु भगिनि
तानेव श्रीशङ्कराचार्य रचितवान् इति बेक्ग्रौण्ड् कथम् अस्ति सः दृष्टवान् सम्यक्रीत्या अहं न वक्तुं शक्नोमि कथं मोहमुद्गरं बेक्ग्रौण्ड् कथम् अस्ति भगिनि सः दृष्टवान् बहवः समयः
स एव अत्र इत्युक्ते अत्र किं वदति प्रथमं श्लोकं प्रथमः श्लोकः किं वदति इत्युक्ते भजगोविन्दं भजगोविन्दं गोविन्दं भज मूढमते सम्प्राप्ते सन्निहिते काले नहि नहि रक्षति दुक्रुण्यकरणे महोदय तनै महोदय वदतु दुक्रुण्यकरणे इत्युक्ते किं
किं भगिनि
दुक्रुण्यकरणे इत्युक्ते अत्र वयं जानीमः तत्र क्रूधातोः प्रातिपदिकं क्रूधातोः मूलरूपं प्रातिपदिकं रूपं धातोः मूलरूपं डुक्रुण् वयं जानीमः तत्र डकारः इति संज्ञकवर्णः ण्यकारः इति संज्ञकवर्णः तदर्थमेव वयं स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रेण तत्र क्रूधातुः उभयपदी भवति तत्र अन्ते ण्यकारः इत्युक्ते चवर्गीय अन्तिमव्यञ्जनम् अस्ति इति कृत्वा तत्र डुक्रुण् तत्र चवर्गे अन्तिमव्यञ्जनम् इत् अस्ति इति कारणतः उभयपदी भवति इत्युक्ते तस्मिन् श्लोके किं वदति इत्युक्ते किमर्थं भवन्तः सर्वे सर्वदा डुक्रुण्यक क्रूधातोः विषये किमर्थं चिन्तनं भगवतः प्रार्थनं करोतु
किन्तु वयं सर्वे द्वे अपि कुर्मः
उत्तमम् उत्तमम् अग्रिमवाक्यं पठतु भगिनि
आरक्षकः धावति चोरं गृह्णाति आरक्षकः धावित्वा चोरं गृह्णाति
उत्तमम् अत्र धाव् धातुः अस्ति धावित्वा इति भवति धाव् धातुः अपि च धावित्वा गृह्णाति रूपं किञ्चित् ऊहां करोतु
ग्रहणं करोति
अत्र कृत्वान्तरूपं
ग्रहधातुः
अस्ति ग्रहधातुः किन्तु लट्लकाररूपं गृह्णाति परन्तु अत्र गृह्णाति इति अस्ति इति कृत्वा अत्र कस्मिन् गणे अस्ति इति द्रष्टव्यम् गृह्णाति क्रयादिगणे इत्युक्ते नवमगणे अस्ति इति कृत्वा तत्र ग्रहधातोः रूपं गृह्णाति ज्ञाधातोः रूपं जानाति अश् धातोः अश्नाति तथा इत्युक्ते अत्र प्रत्येकस्य गणस्य भिन्नभिन्नलक्षणानि सन्ति, अतः लट्लकाररूपाणि भिन्नानि भवन्ति. अतः उत्तमम्. अग्रिमं षष्ठं वाक्यं.
षष्ठं, कविः काव्यं लिखति धनं प्राप्नोति. कविः काव्यं लिखित्वा धनं प्राप्नोति.
उत्तमम्. अग्रिमं.
वानरः फलं खादति धावति. वानरः फलं खादित्वा धावति.
भगिनी, पूर्वस्मिन् वाक्ये अहं किञ्चित् चिन्तनं कुर्मः. तत्र प्राप्नोति अस्ति, तत्र रूपं किं भवति?
प्रा उपसर्गकः आप्नोति.
कोऽपि वदति वा अन्ये? तत्र ल्यबन्तरूपं सिद्ध्यति.
प्राप्य.
सुन्दरं सुन्दरं सुन्दरं. प्राप्य,
प्राप्तं, प्राप्य,
प्राप्य इत्युक्ते अत्र प्रापसर्गपूर्वकः आप् धातुः अस्ति इति कृत्वा, यदा उपसर्गः नास्ति चेत् क्त्वान्तरूपम्, उपसर्गः अस्ति चेत् ल्यबन्तरूपम्.
हा, भवती उक्तवती.
तथा तदर्थमेव अत्र प्राप्त्वा एतधना भवति. प्राप्य. अग्रिमं.
वानरः फलं खादति, खादित्वा धावति.
धावति. उत्तमम्. अग्रिमम्.
अत्र एकः प्रश्नः भगिनि. एतानि वाक्यानि, वाक्यद्वयम् अस्ति. वानरः फलं खादति प्रथमवाक्यं, धावति द्वितीयवाक्यम् अस्ति चेत् धावति सकर्मक अस्ति इति कृत्वा कर्मपदं भवितुं न आवश्यकं वा?
अत्र धाव् धातुः कीदृशः
अकर्मक अस्ति वा
इति भाति.
अस्तु. शिशुः पतति रोदनं.
भगिनी, एकः प्रश्नः भगिनी, यदि सकर्मकधातु योजयित्वा किमपि वाक्यं वाक्ये, तदनन्तरं कर्मपदम् आवश्यकं भगिनी?
पुनः पुनः वदतु भगिनी, तदेव.
यदा यदा सकर्मक धातु किमपि वाक्ये योजयित्वा तदनन्तरं.
भगिनी भगिनी, अहं दृष्ट्वा वदामि एकवारं. शोभा भगिनी, अत्र धाव् धातुः अस्ति, धाव् धातुः सकर्मकः एव, भुवादिगणीयधातुः सकर्मकः धातु. अत्र एकं वदामि, धातुः सकर्मकः इति कृत्वा तत्र कर्मपदं तत्र भवति भवेत् एव इति नियमः नास्ति.
अस्तु भगिनि.
धातुः सकर्मकः अस्ति चेदपि तत्र, इत्युक्ते वाक्यानि कथं लिखामः, अस्माकं विवक्षानुसारं लिखामः. इट् इस् अवर् विश् हौ टु कन्स्ट्रक्ट् द सेण्टेन्स्. इत्युक्ते धातुः कीदृशः इति द्रष्टव्यं, सकर्मकः वा अकर्मकः वा. किन्तु तत्र धातुः सकर्मकः अस्ति इति कृत्वा तत्र कर्मपदं भवेत् सर्वदा, तत्र तादृशनियमः नास्ति.
सकर्मक अस्ति चेत् आप्शनल् अस्ति.
अत्र महाबलेश्वरभट्टवर्यस्य कारकं पुस्तकम् अस्ति, अत्र अहं किञ्चित् पठितुम् इच्छामि. इदमेव अवधेयं, सर्वेषां धातूनाम् अर्थः फलं क्रिया च, धात्वश्च सकर्मकाः अकर्मकश्चेति द्विधा. तत्र सकर्मकधातुः यदा प्रयुज्यते तदा फलम् एकत्र भवति, क्रिया अन्यत्र भवति. फलं यत्र भवति सः कर्म, अतः एव फलाश्रयकर्म इत्युच्यते. क्रिया यत्र भवति सा कर्ता, अत एव क्रियाश्रयः कर्ता इत्युच्यते. यदा सूदः तण्डुलं पचति, पच् धातोः अर्थः अस्ति विक्लिप्तरूपं फलं तदनुकूलक्रिया. विक्लिप्तरूप विक्लिप्तिः तण्डुले, अतः तण्डुलः कर्म, क्रिया सूदे, सूदः इत्युक्ते य पचति, अतः सूदः कर्ता. अकर्मकधातु यदा प्रयुज्यते तदा फलं क्रिया च कर्तरी एव भवतः. यथा चन्द्रः वर्धते, वर्ध धातोः अर्थः अस्ति वृद्धिरूपं फलं तदनुकूलक्रिया च. एतत् उभयमपि कर्तरि चन्द्रे एव वर्तते इति अतः
लिखितमस्ति.
एतत् कारकं पुस्तकम् अस्ति न कारकं महाबलेश्वरभट्टवर्यस्य महाबलेश्वर पञ्चमपृष्ठे पञ्च फिफ्त् पेज्.
अस्तु धन्यवादः.
इदम् अवधेयं तत्र अस्ति.
अस्तु इत्युक्ते अत्र किन्तु अत्र अहं चिन्तयामि धाव् धातुः सकर्मकः अस्ति, किन्तु अत्र कर्मपदं न उक्तमस्ति, केवलं खाद्य धातोः रूपमेव दत्तमस्ति. फलं खादति, धावति, किन्तु कर्ता एकः एव. अत्र महोदय तत्र किञ्चित् संक्षिप्तरूपेण किञ्चित् वदति वा, भवान् यत् लिखि पठितवान् तस्मिन् विषये?
न, यदा क्रिया धातोः धातुक अर्थः अस्ति तत्र क्रिया अपि च फलं, यदा क्रिया अपि फलमपि कर्ता एव आश्रयते, आश्रय भवति, तदा अकर्मकः भवति. यदा फलम् अन्यत् फलस्य आश्रय अन्यत् अस्ति, क्रियायाः आश्रय कर्ता अस्ति, तदा सकर्मकः भवति इति अर्थमस्ति. यथा क्रीडति इति अस्ति, क्रीडति क्रीडा किमर्थम् अकर्मक क्रीडति इति, तस्य क्रीड व्यापार अपि तस्य फल अपि कर्तु एव भवति, अपि च क्रीडायाः आशयः कृता एव. अतः
किं वदामः इत्युक्ते अत्र भवान् उक्तवान् अग्रिमे सप्ताहे वयं कस्मिन् विषये चिन्तनं कुर्मः, किमर्थं चेत् कारकं पुस्तकं यदि सर्वेषां पार्श्वे अस्ति चेत् तत्र कारकम् अत्र तस्मिन् पुस्तके किं दत्तमस्ति इति एकवारं पठित्वा अग्रिमे सप्ताहे तस्मिन् विषये चिन्तनं कुर्मः. अधुना अग्रे गच्छेम. उत्तमम्. अधुना वदतु भगिनि, शोभा भगिनि वदतु.
शिशुः पतति, रोदनं करोति. शिशुः पतित्वा रोदनं करोति.
उत्तमम्. अत्र पत् धातुः अपि अकर्मकधातुः, रुद् धातुः अपि अकर्मकधातुः, किन्तु रुद्धातोः रोदनं क्रूधातोः करोति. अत्र क्रूधातुः सकर्मकः, रोदनं करोति. उत्तमं. पतित्वा अत्रापि इडागमः भवति. तथा एव अत्र रुद् धातोः रूपं रुदित्वा केवलं वर्णमेलनमेव भवति, रुदित्वा इति भवति, करोति कृत्वा. उत्तमम्. अग्रिमं.
पितामहः कथां कथयति, प्रश्नं पृच्छति. पितामहः कथां कथयित्वा प्रश्नं पृच्छति.
उत्तमम्. अग्रिमं.
बालिका नृत्यति, जनान् तोषयति. बालिका नृत्वा जनान् तोषयति.
अत्र नर्तित्वा
अस्तु.
किञ्चित् भिन्नं रूपं, किञ्चित् भिन्नं रूपं. नृत् धातुः अस्ति, किन्तु तत्र नर्तित्वा इति रूपं भवति. जनान् तोषयति अत्र कोऽपि वदति वा पोषयति तत्र रूपविषये? अहं चिन्तयामि अत्र धातुः अस्ति तुष् धातुः, लट्लकाररूपं तुष्यति
तुष्यति,
किन्तु अत्र निजन्तरूपम् अस्ति इति कृत्वा तुष् तोष् भवति, तत्र गुणकार्यं भूत्वा. किमर्थं चेत् अत्र तुष् धातुः हलन्तधातुः, तदर्थं तत्र हलन्तधातुः अपि च पुगन्तलघुपदस्य च इति सूत्रेण तत्र तोष् भवति. अत्र निजन्तरूपं दत्तमस्ति तोषयति. तोषयति तस्य क्वान्तरूपं किं भगिनि?
तोषयति निजन्त अस्ति चेत् उपसर्ग नास्ति, तोषयित्वा.
उत्तमं, तोषयित्वा. सुन्दरं भगिनि, धन्यवादः. अधुना अनन्तरं रघुपताचार्य महोदय भवान् करोति वा अग्रिमम् अग्रिमानि वाक्यानि?
अस्तु. जननी स्नानं करोति, पाकं करोति. जननी स्नानं कृत्वा पाकं करोति. छात्रः अध्यापकं पश्यति, नमस्करोति. अस्तु. छात्रः अध्यापकं दृष्ट्वा नमस्करोति, नमस्कारं करोति. नमस्कारं करोति
नमस्करोति इति दत्तमस्ति.
अस्तु, नमस्करोति.
अत्र दृष् धातुः अस्ति किन्तु रूपं पश्यति अस्ति, परन्तु क्वान्तरूपं तत्र योजयामश्चेत् तत्र दृश्योगः त्वा दृष्ट्वा, तत्रापि सन्धिकार्याणि सन्ति. तत्र दृष् धातोः रूपं कथं कथं दृष्ट्वा भवति?
एतत् स्तोस्तु नश्चुः दृश् शकार तकार तकार भवति दृष्ट्वा.
अहं चिन्तयामि
स्तुनाश्चुः स्तुनश्चुः अस्ति स्तोः स्तुनश्चुः
इत्युक्ते
सकार तकारयोः सकार तकार.
अत्र यद्यपि सूत्रं ष्टुनाष्टुः, किन्तु अनुवृत्तिरूपेण स्तोः ष्टुनाष्टुः इति अनुवृत्तिसहितसूत्रमस्ति. तेन दृष्ट्वा इति सन्धिकार्यं भूत्वा तत्र त्वा इत्यस्य तत्र स्थाने तत्र षक् टकारः मूर्धन्यटकारादेशः भवति, तथा दृष्ट्वा इति रूपम् आगच्छति. अत्र वदतु महोदय, नमस्करोति इति पदमस्ति, तस्य कृते रूपं किं भवति? क्त्वान्तं वा ल्यवन्तं वा किं भवति? रूपं कथं भवति?
नमस्कृत्वा कृत्वा इति नमस्कृत्वा
नमस्कृत्य अहं चिन्तयामि.
सोरि सति कृत्य लेबन्तरूपमस्ति. अस्तु, क्त्वान्तरूपं नास्ति.
इत्युक्ते अत्र नमः इति पदं, यद्यपि नमः इति पदं द्वाविंशति उपसर्गेषु नास्ति, किन्तु उपसर्ग इव कार्यं करोति. नमः इति पदम् उपसर्ग इव कार्यं करोति. तत्र नमः अपि च नमः अनन्तरं ककारः अस्ति इति कृत्वा तत्र नमस्करोति. अत्र विसर्गस्य स्थाने सकारादेशः भवति. विसर्गसन्धिं पठामश्चेत् तत्र वयं जानीमः नमस्करोति.
अत्र मम एकः प्रश्नः, स्वा अपि उपसर्गे नास्ति, किन्तु स्वावलम्बनं वयं दृष्टवन्तः. तत्र स्वा अवलम्बनं नास्ति वा भगिनि? किमर्थं चेत् स्वार्थं भवति. स्वस्य इत्युक्ते स्वस्य स्वा उपयोगः अहं न जानामि. स्वस्य कार्यं करोतु इति स्वा इति अव्ययपदमस्ति वा?
अव इति उपसर्ग अस्ति.
अत्र
अवलम्ब्य इति भवति.
किन्तु स्वार्थं तत्र किं भवति?
अहम् एकवारं श्रुतवती भगिनी, यदि वयं साधारणतया स्वास्ति इति पदं शृणुमः चेत् तत्र सुयोगः अस्ति स्वस्ति, तत्र यण्सन्धिः भूत्वा स्वस्ति इति रूपम् आगच्छति. तथा एव भवति चेत्, तादृशरीत्या एव कार्यं भवति चेत् अत्र स्वावलम्बी इति पदमस्ति चेत् स्वावलम्बी, तत्र नकारान्तपदमस्ति चेत् तत्र सु इति उपसर्गपूर्वकः, अव उपसर्गपूर्वकः, तत्र लम्ब् तस्मात् धातुतः लम्बी इति इणि प्रत्ययं योजयित्वा यथा गुणिशब्दवत् रूपं सिद्ध्यति इति अहं चिन्तयामि.
अवगच्छामि भगिनि, किन्तु स्वार्थः अपि स्वस्य कथं भवति?
स्वार्थ
स्वार्थ
द्रष्टव्यं.
अस्तु,
अत्र अत्र सु सुयोगः अर्थ इति वदामश्चेत् स्वयोगः अर्थः भवति चेदपि तत्र स्वार्थः भवति, सवर्णदीर्घसन्धिः भवति चेत् तत्र तनय महोदय वदतु.
मम प्रश्नः अस्ति, अत्र दृश् योगः त्वा, अत्र दृश् इत्यस्य अन्ते तालव्य क्षम्यतां तालव्यसकारः अस्ति, तर्हि ष्टोः ष्टुनाष्टुः इत्यस्य कार्यं कथं भवति?
दृश् तालव्यचकारः अस्ति, अनन्तरं त्वा तकारः अस्ति त्वा इत्यस्मिन्. अत्र किं भवति दृष्ट्वा?
अत्र अहं चिन्तयामि ष्टोः ष्टुनाष्टुः इत्यस्य कार्यं न भवति. किमर्थम् इत्युक्ते अत्र शात् इति सूत्रेण, निषेधसूत्रेण स्तोः ष्टुनाष्टुः इत्यस्य कार्यं न भवति, परन्तु स्तोः ष्टुनाष्टुः इत्यस्य कार्यं कथं भवति इति न अवगच्छामि.
अग्रे पुनः चिन्तयित्वा वदामि महोदय, तत्र दृष्ट्वा वदामि. परन्तु कथं वदामि इत्युक्ते, विष् धातोः रूपं विष्ट विष्योगः, तत्र पश्यतु विष् इति धातुः अस्ति, विष् धातोः अनन्तरं क्ताप्रत्ययं, केवलं क्ताप्रत्ययं योजयामश्चेत् तत्र रूपं किं सिद्ध्यति? विष् धातोः रूपं विष्ट इति भवति. तादृशरीत्या एव आविष्योगः तः आविष्टः, वयं गीताप्रवेशे पठितवन्तः आविश्, तत्रापि तालव्यषकारः अन्ते अस्ति, किन्तु अनन्तरं क्तान्तरूपं, क्तान्तरूपम् इत्युक्ते तत्र ककारः चित् वर्णः भवति, तकारः अवशिष्यते, तकारस्य योजनेन तत्र ष्टुनाष्टुः इति कार्यं भूत्वा तत्र आविष्टः इति रूपम् इति भवति. तथा एव दृश् धातोः दृष्टः इति
रूपं. अहं चिन्तयामि केनचित् सूत्रेण मूर्धन्यषकारस्य स्थाने प्रथमतया तालव्यषकारस्य स्थाने प्रथमतया मूर्धन्यषकारः इत्यस्य आदेशः भवति, तदनन्तरं ष्टुनाष्टुः इत्यस्य कार्यम् अभवत् इति मन्ये.
इत्युक्ते कार्यद्वयमस्ति, कार्यद्वयमस्ति वदतु.
सः एकमस्ति 8.2.36 वृश्च भ्रस्रज मृज धातो शः आदेशः भवति, अतः एव अहं मन्ये अस्ति. वृश्च भ्रस् 8.2.36 किमपि अस्ति, अहं न
जानामि. इत्युक्ते
चकारस्य आदेशः,
प्रथमतया षकारादेशः भवति, अनन्तरं षकारस्य प्रभावेण
मूर्धन्
भ्रश्च भ्रश्च उत्तमं षज राज मृज भ्राज यज
किमपि अस्ति तत्र
शशांशः इति सूत्रमस्ति. तेन इत्युक्ते तेन प्रथमतया मूर्धन्यषकारादेशः भवति, अनन्तरं स्तुत्वं भवति.
अस्तु भगिनि, धन्यवादः.
उत्तमं सम्यक्. अस्तु, अनन्तरं अनन्तरं कुत्र स्मः वयं?
युवकः शोकः युवकः चित्रालयं गच्छति, चित्रं पश्यति. युवकः चित्रालयं गत्वा चित्रं पश्यति. गत्वा कथं भवति भगिनि? गत्वा इति गम् योगत्वा
तत्रापि सूत्रमस्ति, यथा अनुनासिकान्तधातुः अस्ति चेत् तत्र गत्वा इति रूपम् आगच्छति. परन्तु सूत्रस्य विषये त्यजामः महोदय, अहं न दृष्टवान् इत्युक्ते इन् द रीसेण्ट् पास्ट् अहं न पठितवती सूत्राणां विषये, किन्तु इतोपि पठनीयं मया अपि, इतोपि पठनीयम्. अस्तु,
बालिका गीतं शृणोति, नृत्यति. श्रुत्वा इति भवति.
नृत्यति, नृत्यति इत्यस्य रूपं नर्तित्वा.
नर्तित्वा, अनर्तित्वा गुण भवति. नर्तित्वा गुण नृत् नर्तित्वा ओके ईडागं भूत्वा नर्तित्वा. बालकः जननी स्मरति, रोदनं करोति. स्पृधातु अस्ति, स्मृत्वा बालकजननी स्मृत्वा रोदनं करोति.
इत्युक्ते अत्र एकं वयं पठितवन्तः, किमित्युक्ते अत्र धातुः अस्ति स्मृ धातुः, अजन्तधातुः, ऋकारान्तधातुः. साधारणतया अजन्तधातवः अनेकः सन्ति, हलन्तधातवः सेटः सन्ति. अतः स्मृधातोः रूपं तत्र केवलं वर्णमेलनं भूत्वा स्मृत्वा. श्रुधातोः रूपं श्रुत्वा, तत्र श्रुधातुः अपि केवलम् अजन्तधातुः, इत्युक्ते अन्ते ऋकारः श्रूयते. अतः श्रुत्वा स्मृत्वा, क्रुधातुः कृत्वा, एते अजन्तधातवः इति कृत्वा तत्र ईडागमः न भवति. किमर्थं चेत् धातुः अनिट् धातुः. उत्तमम्. अग्रिमं पठतु महोदय.
त्वं दुग्धं पिबसि, क्रीडसि. त्वं दुग्धं पीत्वा पीत्वा क्रीडसि. पादातु पी कथं भवति? पीत्वा, पीत्वा इति अस्ति, पीत्वा न
पीत्वा, पीत्वा तत्रापि सूत्रमस्ति महोदय. पाधातोः रूपं पिबति कथं भवति?
पिब तत्तु आदेशः अस्ति, पा लट् लक सारि शपिप किमपि अस्ति, पिब पिबति.
इत्युक्ते अहं चिन्तयामि अत्र धात्वादेशः भवति इति अहं चिन्तयामि. इत्युक्ते तत्र पा धातोः, यथा पा धातुः अस्ति, मा धातुः अस्ति, तदा तत्र दीर्घ आकारान्तधातूनां विषये तत्र
धात्वादेशसूत्रमस्ति. पाज्राग्राब्रा किमपि अस्ति. अनन्तरं त्वं दुग्धं पिबतु. शिष्यः प्रश्नं पृच्छति, उत्तरं जानाति. शिष्य प्रश्नं पृच्छति, पृष्ट्वा वा रेफ भवति वा?
पृष्ट्वा
अस्तु.
अत्र धातुः प्रच् धातुः, रूपं पृष्ट्वा इति भवति.
मूर्धन्यरकार दृष्ट्वा
अत्र कृष्णरुकारः महोदय.
अस्तु,
पृष्ट्वा
पृष्ट्वा उत्तरं जानाति.
परन्तु अहं चिन्तयामि अत्र पृष्ट्वा इति रूपविषये अत्र अत्रापि तत् सूत्रमस्ति, किमर्थं शकारादेशः भवति तत्र प्रश्च भ्रश्च भजराज शशांशः सूत्रं अत्रापि कार्यं करोति प्रथमतया. अनन्तरं श्रुत्वम्. अनन्तरं
भक्तः देवं नमति प्रार्थनां करोति नत्वा अस्ति नं दातु अस्ति नत्वा नत्वा प्रार्थनां करोति
नत्वा नमति नं धातोः रूप नं धातोः रूपं नमति नत्वा
नत्वा
अत्र प्रार्थना इति पदमस्ति तत्र लट्लकाररूपं किं भवति महोदय तत्र अन्तिमप्रत्ययः भिन्नप्रत्ययः किन्तु अत्र प्रार्थयति लट्रूपं प्रार्थयति इति
प्रार्थयति
तत्र कृतान्तरूपं प्रार्थयित्वा
प्रार्थयित्वा अस्तु प्रार्थयित्वा
उत्तमम् अग्रिमं
भगिनी अत्र उपसर्गः अस्ति चेदपि लेबन्तं न भवति वा
ओ
सम्प्रार्थ्य भवति वा प्रार्थना इति उपसर्गः अस्ति वा
प्रा इति उपसर्गः एव महोदय अत्र प्रार्थयते इति रूपमस्ति वा प्रार्थयति तत्र यथा भगिनी उक्तवती तत्र ल्यबन्तरूपं सम्भवति वा
प्रार्थ्य अस्ति वा
प्रार्थयति अहं पठितवान् कुत्रापि सम्प्रार्थ्य इति भवति अतं प्रार्थयित्वा एव अहं पठितवान् आसम् चिन्तयामि अहं न जानामि
तनय महोदय भवान् जानाति वा अत्र प्रार्थय तस्य रूपं किं भवति
न जानामि भगिनि
अत्र द्रष्टव्यम् अत्र किं भवति अत्र प्रार्थना इति रूपमस्ति अस्तु दृष्ट्वा वदामः अग्रिमं पठतु महोदय
युवकः दुरभ्यासं त्यजति सज्जनः भवति त्यज् दातु त्यक्त्वा इति युवकः दुरभ्यासं त्यक्त्वा सज्जनः भवति त्यज्त्वा त चकार त्यक्त्वा
त्यक्त्वा त्यज् धातोः रूपं त्यक्त्वा अत्र अहं चिन्तयामि अत्र चोः कुः इति सूत्रं कार्यं करोति चकारस्य स्थाने ककारादेशः भवति
झलिपरे
चोः कुः तत्र झलिपरे चकारस्य स्थाने ककारादेशः भवति अत्र भवति इत्यस्य रूपं वदतु
भवति भूत्वा
तथा भूधातोः रूपमपि भूत्वा अस् धातोः रूपमपि
अस् धातोः रूपमपि भूत्वा एव
अस् धातोः रूपमपि भूत्वा एव
भगिनि अभ्यासपदम् अभ्यासपदमिति अभियोग आस् इति समीचीनं भगिनि अभ्यास
द्रष्टव्यं भगिनि तत्र द्रष्टव्यं रूपं कथं सिद्ध्यति अनन्तरम् अत्र अन्तिमं वाक्यं पठतु महोदय
बालकाः क्रीडन्ति गृहं गच्छन्ति क्रीडातु क्रीडित्वा बालकाः क्रीडित्वा गृहं गच्छन्ति
उत्तमं महोदय धन्यवादः अधुना तनय महोदय भवान् वदतु अग्रिमं करपत्रं दृष्ट्वा
आं भगिनि अग्रिमं करपत्रम् उदाहरणा अनुगुणं वाक्यानि योजयन्तु सः विद्यालयं गच्छति पाठं पठति सः विद्यालयं गत्वा पाठं पठति बालिका फलं खादति जलं न पिबति बालिका फलं खादित्वा जलं न पिबति। अग्रिमं पठामि भगिनि।
अत्र पिबति इत्यस्य रूपं किम्?
पिबति इत्यस्य पीत्वा इति रूपं, त्वान्तरूपं पीत्वा।
पीत्वा, उत्तमम्। अग्रिमं।
रमेशः दुग्धं पिबति शयनं करोति। रमेशः दुग्धं पीत्वा शयनं करोति। अहं श्लोकं वदामि अर्थं बोधयामि। अहं श्लोकम् उदित्वा अर्थं बोधयामि।
उत्तमं। बोधयति अत्र बुद्धधातोः रूपं,
निजन्तरूपम् अस्ति।
निजन्तरूपं, तत्र निजन्तरूपम् अस्ति चेत् क्तान्तरूपं किं भवति?
बोधयित्वा, बोधयित्वा,
बोधयित्वा। उत्तमम्। अग्रिमं।
सा पुस्तकं पठति भोजनं करोति। सा पुस्तकं पठित्वा भोजनं करोति। अत्र इडागमः भवति। अहं कार्यं करोमि विद्यालयं गच्छामि। अहं कार्यं कृत्वा विद्यालयं गच्छामि। ते चित्रं पश्यन्ति आनन्दम् अनुभवन्ति। ते चित्रं दृष्ट्वा आनन्दम् अनुभवन्ति।
अत्र महोदय, अत्र अत्र अनुभवन्ति इति पदमस्ति, तत्र रूपं किं भवति? क्तान्तं वा?
अत्र पूर्वकः भूधातु अस्ति, अतः ल्यबन्तरूपं भवति। अनुभूय इति मन्ये।
अनुभूय। उत्तमम्। अनन्तरं।
भवन्तः गीतं शृण्वन्ति चायं पिबन्ति। भवन्तः गीतं श्रुत्वा चायं पिबन्ति। वयं धनं यच्छामः वस्तूनि क्रीणीमः। वयं धनं दत्त्वा वस्तूनि क्रीणीमः।
अत्र यच्छामः इति पदमस्ति, किन्तु कोष्टके दद्मः इति दत्तमस्ति। यच्छामः दद्मः इत्युक्ते अत्र दाधातोः स्थाने यच्छामः अस्ति चेदपि तत्र दत्त्वा एव, अत्र दद्मः तस्य स्थाने दत्त्वा, दाधातोः रूपं दत्त्वा अस्ति, किन्तु अत्र भिन्नं रूपं सम्भवति वा? भवान् किम् उक्तवान् महोदय, वदतु।
अहं दत्त्वा एव उक्तवान्। दद्मः इति विकल्पेन अस्ति वा रूपम्?
अत्र उत्तमपुरुष बहुवचनरूपं यच्छामः इत्यस्मिन् स्थाने दद्मः इति दत्तमस्ति, तत्र किं भवति इति द्रष्टव्यं महोदय। अत्र दाधातोः विषये, दाधातुः अपि उभयपदी इति भाति, अत्र द्रष्टव्यम्। अनन्तरं वस्तूनि
यदि दद्मः न दत्तम् अस्ति चेत् यच् धातु क्वान्तरूपम् अस्ति अस्ति।
तत्र किं भवति इति द्रष्टव्यं भगिनि, तत्र यच्छामः इति यदि दद्मः न दत्तमस्ति चेत् तत्र रूपं किं भवति? यच्छामः यष्ट्वा इति भवति वा? तथा द्रष्टव्यं तत्र। यथा प्रच्छिधातोः पृष्ट्वा, पृष्ट्वा इति भवति, परन्तु अत्र यच् इति अस्ति चेत् तत्र यष्ट्वा इति रूपं सिद्ध्यति वा इति द्रष्टव्यम्। अत्र
चिन्तयामि यथा अस् भूधा अस् अपि च भूधातोः स्तः तथा एव दा यच्च इति अस्ति इति अहं चिन्तयामि।
दृष्टवान् वा महोदय अत्र? किन्तु अहं अस्धातोः स्थाने तत्र अस्तेर्भूः इति सूत्रमस्ति. अत्र अस्धातोः स्थाने भूधातोः आदेशः भवति इति अस्ति. परन्तु अत्र दाधातोः अत्र यच् तस्मिन् स्थाने दाधातोः रूपम् आगच्छति इति किमपि तत्र सूत्रं स्यात्. उत्तमम्. अपि च क्रीणीमः, अत्र क्रीणीमः तस्य रूपं किं भवति? सान्तरूपम्.
तस्य सान्तरूपं भवति क्रीत्वा.
क्रीत्वा, उत्तमम्. अग्रिमं पठतु महोदय.
सः फलानि नयति, जनन्यै ददाति. सः फलानि नीत्वा जनन्यै ददाति.
नीत्वा अत्र अत्र केवलं धातुः नी धातुः दीर्घ ईकारान्तधातुः अजन्तधातुः अनेक् इति कृत्वा नी धातोः नीत्वा दा धातोः रूपं तत्र दत्वा. अत्र दा धातोः विषये अहं किञ्चित् पठितवती, अतः वदामि. तत्र दा धातुः जुहोत्यादिगणे अस्ति इति कृत्वा तत्र द्वित्वं भवति, द्वित्वकार्यम् अस्ति. अपि च तत्र अभ्यासकार्यम् इति वदामः, अभ्यासकार्यं भवति चेत् तत्र द्वित्वं भवति. अपि च पूर्वस्वरस्य पूर्ववर्णस्य ह्रस्वत्वं भवति. ह्रस्वः ह्रस्वः इति सूत्रेण तत्र अभ्यासकार्यं भूत्वा जुहोत्यादिगणस्य विशेषः एव द्वित्वम् अपि च अभ्यासकार्यम्.
अभ्यासकार्यम् इत्युक्ते किं भगिनि?
अभ्यासकार्यम् इत्युक्ते तत्र यदा द्वित्वं भवति दा धातोः तत्र द्वित्वं भवति इत्युक्ते दा धातोः रूपं दादा तदा भवति. प्रथमतया दादा इति भवति. धा धातोः रूपं दधाति इति रूपम् अस्ति. तत्र प्रथमतया द्वित्वं भवति. द्वित्वं भवति इत्युक्ते दा धातोः रूपं दादा इति भवति. तदनन्तरं तत्र अभ्यासकार्यम् इत्युक्ते अभ्यासः इत्युक्ते तत्र प्रथमतया द्वितीयवर्णस्य अभ्यस्तसंज्ञा भवति. तत्र संज्ञासूत्रमस्ति अभ्यस्तसंज्ञा. द्वयोः नाम अस्ति अभ्यासः. केवलं दादा इत्यस्मिन् द्वितीयदा अस्ति, तस्य नाम अस्ति अभ्याससंज्ञा, अभ्यस्तसंज्ञा. परन्तु द्वयोः नाम अस्ति अभ्यासः. तथा किमपि अस्ति भगिनि अत्र? देट् मीन्स् देर् आर् टु लेटर्स् लैक् दादा, टु टैम्स् दादा विल् कम् बिकास् आफ् द्वित्वं. संज्ञासूत्रं व्याकरणसूत्राणि सन्ति. द्वितीयदा दकारस्य नाम अस्ति अभ्यस्तसंज्ञा. द्वयोः नाम अस्ति अभ्याससंज्ञा. प्रथमतया अभ्यासकार्यं भवति. अनन्तरं तत्र ह्रस्वः इति सूत्रेण पूर्वं स्थितस्य दकारस्य ह्रस्वत्वं सिद्ध्यति. तदर्थमेव धा धातोः रूपं दधाति, तथा एव दा धातोः रूपं ददाति. तत्र ह्रस्वं कथं भवति इति तत्र जुहोत्यादिगणे वयं पठिष्यामः. उत्तमम्. अग्रिमं पठतु महोदय.
आं भगिनि. ताः संस्कृतं जानन्ति, सम्भाषणं कुर्वन्ति. ताः संस्कृतं ज्ञात्वा सम्भाषणं कुर्वन्ति. सः दुर्गुणं त्यजति, सज्जनः भवति. सः दुर्गुणं त्यक्त्वा सज्जनः भवति. महिलाः गीतं गायन्ति, पूजां कुर्वन्ति. महिलाः गीतं गीत्वा पूजां कुर्वन्ति.
उत्तमं. गीत्वा वदतु महोदय, गीत्वा इत्यस्मिन् विषये वदतु.
अहं न जानामि, अहम् ऊहं करोमि गीत्वा इति अस्ति.
गीत्वा एव. तत्र धातुः अस्ति गै धातुः, ऐकारान्तधातुः गै धातुः. गै धातोः रूपं गीत्वा. तत्रापि कार्याणि सन्ति तथा एव ध्यै ध्यै धातोः रूपाणि तत्र ध्यायति ध्यानम् इति वयं शृणुमः ध्यायति ध्यानं तत्र धातुः अस्ति ध्यै धातुः अत्र अहं चिन्तयामि गै धातोः रूपं तत्र ऐकारान्तधातुः इत्युक्ते एजन्तधातुः अस्ति इति कृत्वा आदेश उपदेशे अशिति अत्र अशित् प्रत्ययः अक्त्वा इति अशित् प्रत्ययः अस्ति इति कृत्वा गा भवति अनन्तरं तत्र गी कथं भवति इति अपि अहं न जानामि सम्यक् प्रथमतया ऐकारान्तधातवः अत्र अशित् प्रत्यये परे आकारान्ताः भवन्ति इति अहं तावत् जानामि परन्तु गीत्वा कथं भवति अहं न जानामि
भगिनि ध्यायति त्वान्त रूपं धीत्वा
न
गै गीत्वा ध्यै ओके
द्रष्टव्यं भगिनि गै धातोः रूपं गै धातोः रूपं गीत्वा अत्र तु गीत्वा एव
अस्तु
अनन्तरं वदतु महोदय
वैद्याः औषधं यच्छन्ति धनं स्वीकुर्वन्ति वैद्याः औषधं यच्छन्ति दत्त्वा धनं स्वीकुर्वन्ति अत्रापि दत्त्वा अस्ति वा न वा न अस्ति इति न जानामि
अहं दत्त्वा एव पठितवती महोदय यच्छन्ति तस्य स्थाने परन्तु यच्छन्ति इत्यस्य स्थाने दत्त्वा किमर्थम् इति अपि ज्ञातव्यम्
आं भगिनि
अपि च अत्र स्वीकुर्वन्ति तत्र रूपं किम्
अत्र स्वीकुर्य स्वी स्वी लबन्तं रूपम् अस्ति स्वी स्वीकृ योगः ल्यप् स्वीकृय इति अस्ति वा
स्वीकृत्य
ओ अस्तु स्वीकृत्य
अनन्तरं
भगिनि अत्र
वदतु महोदय
अत्र एक सूत्रमस्ति किमर्थं पा इति गा इति गीयते गुमास्ता गाप जहाति सा हलि ईकार भवति प्राप्नुवन्ति इति अस्ति सिक्स् सूत्र
अस्तु तेन गुमास्था गापा जहाति
पा मा मीयते ता तीयते गा गीयते हा हीयते दा दीयते धा धीयते इति
संख्या किम् अस्ति संख्या का अस्ति
सिक्स् षष्ट सिक्स् पायिण्ट् फोर् पायिण्ट् सिक्स्टि सिक्स् फोर् सिक्स् षष्टम अध्यायस्य चतुर्थपाद सिक्स्टि सिक्स् षट् षष्टिः षष्टितमसूत्रं
धन्यवादः
इत्युक्ते अहं चिन्तयामि तत्र घू इत्युक्ते तत्र केचन धातवः घू इत्यस्मिन् केचन धातवः सन्ति अनन्तरं मा धातुः घूसंज्ञा अस्ति अनन्तरम् अत्र घू मा इत्युक्ते मा धातोः रूपं माति स्था धातोः रूपं तिष्ठति वयं जानीमः स्था गा गा धातुः पा उत्तमम् सूत्रं तदेव इत्युक्ते अस्तु अनन्तरम् अग्रे पठतु महोदय तने महोदय
पितामहः रामायणं पाठयति अर्थं वदति पितामहः रामायणं पाठयित्वा अर्थं वदति छात्रः चिन्तयति उत्तरं लिखति छात्रः चिन्तयित्वा उत्तरं लिखति जननी पुत्रं ताडयति दुःखम् अनुभवति जननी पुत्रं ताडयित्वा दुःखम् अनुभवति
अत्र अनुभवति तत्र रूपं किं महोदय
तत्र लबन्तरूपं भवति अनुभूय इति
अनुभूय उत्तमम् अनन्तरं
क्रीडापटुः क्रीडति पदकं प्राप्नोति क्रीडापटुः क्रीडित्वा पदकं प्राप्नोति
पदकम् इत्युक्ते किं
पदकम् इत्युक्ते मेडल् इति अहं चिन्तयामि
उत्तमम् इत्युक्ते अत्र अहं दृष्टवती तत्र कीर्तिमुद्रा कीर्तिमुद्रा इति लिखितम् उत्तमम् उत्तमं महोदय कीर्तिमुद्रा इति लिखितमस्ति वयं जानीमः रजतपदकं तदा अस्ति तदा एव अत्र पदकं किन्तु प्रादेशिकभाषासु पदकम् इति वदामः किन्तु अत्र पदकम् इति संस्कृतपदम् एव इत्युक्ते उत्तमम् अपि च प्राप्नोति तस्य रूपं प्राप्य अग्रिमं करोतु
एताः पूजां कुर्वन्ति प्रसादं स्वीकुर्वन्ति एताः पूजां कृत्वा प्रसादं स्वीकुर्वन्ति
अत्र प्रसादः इति पदमस्ति प्रा उपसर्गपूर्वकः सीद् सीदति इति रूपमस्ति तस्य घै प्रत्ययान्तरूपम् इति अहं चिन्तयामि प्रसादः इति रूपम् अस्ति किन्तु तत् द्रष्टव्यं सीदति इत्युक्ते किं प्रसीदति प्रसीदति इति इत्युक्ते तुष्यति इत्यस्मिन् अर्थे इति अहं चिन्तयामि
सीदति गात्राणि सीदन्ति मम गात्राणि इति अस्ति सीदन्ति पर्स्परेशन् इति भवति वा सीदति गीताध्यायम्
गीतायां
सीदन्ति मम गात्राणि
तत्र गात्राणि इत्युक्ते शरीराणि
सीदन्ति मम गात्राणि
इत्युक्ते सिटिङ्ग् डौन् लैक् डौन्
कोलाप्सिङ्ग् अस्तु
परन्तु अत्र तथा न भवति इति भाति इत्युक्ते प्रसादः इति पदमस्ति अत्र प्रसादः अस्तु अनन्तरम् अत्र स्वीकुर्वन्ति स्वीकृत्य इति भवति रूपम् अन्तिमं करोतु महोदय
अर्चकः देवम् अर्चति प्रार्थनां करोति अर्चकः देवम् अर्चित्वा प्रार्थनां करोति अत्र इडागमः भवति इति मन्ये
अर्चित्वा उत्तमम् अनन्तरम् अत्र
अर्चयित्वा भगिनि अर्चित्वा अर्चित्वा
अर्चित्वा महोदय अर्चित्वा इति अहम् अत्र किञ्चित् शीघ्रं वयं जानीमश्चेत् इतोपि सम्यक् भवति कानिचन पदानि ल्यबन्तपदानि सन्ति किञ्चित् ऊहां कृत्वा वयं वदामः आगच्छति रूपं किं भवति इतोपि वदतु
आगत्य
तर्वात् सङ्गृह्णाति
सङ्गृह्य सङ्गृह्य
उत्तमम् उत्तमं सङ्गृह्य अनन्तरम् अनन्तरं प्रकटयति
प्रकटयित्वा प्रकट्य प्रकट्य भवति वा
अतः अत्र किञ्चित् रूपं भिन्नं भवति कथमित्युक्ते प्रकटय्य प्रकटय्य तत्र अन्तिमं यकारः द्वित्वं द्विवारम् आगच्छति प्रकटय्य तथा तथा एव सम्प्रेषयति सम्प्रेष्य तथा एव उपवेशयति
उपविश्य
अत्र उपविशति उपविश्य किन्तु
उपवेश्य
निजन्तरूपं तत्र अनन्तरं आनयति
आनीय
सुन्दरं सुन्दरम् अनन्तरम् अत्र समापयति
समाप्य
समाप्य
सुन्दरं सम्मिलति
सम्मिल्य
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 मेल्य
मेल्य
सम्मिल्य
अतमिल्य
सम्मिल्य सम्मिल्य यकारः ल्यबन्तरूपं संस्थापयति
संस्थाप्य
संस्थाप्य
अनन्तरं विलिखति
विलिख्य
विलेख्य
विलेख्य
विलिख्य इति दत्तमस्ति महोदय
अत्र तुमुन् अस्ति पदं भवति चेत् ए कारः आगच्छति
उत्तमं लिखित्वा
वशि अस्ति वा
तत् अनन्तरम् अत्र निर्गच्छति तत्र निर्गच्छति रूपस्य ल्यबन्तरूपं किं भवति
निर्गत्य
सुन्दरं
किमर्थं तकार अस्ति भगिनि
निर्गच्छति इत्यस्य रूपं गच्छति इत्यस्य रूपं गत्वा किन्तु निर्गच्छति इत्यस्य रूपं निर्गत्य
किन्तु तकार अन्यपदस्य न आगच्छति
निरुपसर्ग
अनुभूत्य अनुभूत्य इति सम्यक् नास्ति अनुभूय
अनुभूय अत्र भगिनी अत्र ल्यबन्तरूपम् अस्ति चेत् वयं जानीमः एव तत्र लकारः इति संज्ञकवर्णः भूत्वा पकारः इति संज्ञकवर्णः भूत्वा केवलं तत्र यकारः एव तिष्ठति अत्र निर्गच्छति इत्यस्य रूपं निर्गत्य अत्र तथा एव विजानाति इति रूपमस्ति चेत् विज्ञाय तथा एव हसति रूपं किं भवति सुन्दरं परन्तु एकम् अन्यं पदम् अस्ति विहसति विहस्य च विहाय च तत् एतानि सर्वाणि ल्यबन्तरूपाणि उत्तमः अभ्यासः अभवत् अद्य किन्तु कालातीतः अभवत् क्षम्यतां परन्तु वयं सम्यक् रीत्या अभ्यासं कृतवन्तः सर्वेषां धन्यवादः अत्र कथा अस्ति पतञ्जलिः नाम्ना एका कथा अस्ति परन्तु अग्रिमे सप्ताहे वयं सर्वे मिलित्वा एकवारं कथां पठामः पुनः सर्वेषां धन्यवादः
धन्यवादः
भगिनि
धन्यवादः